इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरण मतदानाय सर्वाः सज्जाः अभवन्। नवराज्येषु एकस्मिन् केन्द्रशासित प्रदेशे च 96 लोकसभासनेभ्यः मतदानं श्वः भविष्यति। आन्ध्रप्रदेश ओडिशा राज्ययोः लोकसभायै विधानसभायै च सहैव मतदानं श्वः भविष्यति। सुरक्षाबलैः जम्मू कश्मीरस्य राजशी जनपदे आतंकिनां स्थलात् बृहन्मात्रायां विस्फोटकानि अधिगतानि। अपि च क्रीडावार्तायां आईपीएल क्रिकेट स्पर्धामालिकायाम् अद्य दिल्ली कैपिटल्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य चतुर्थ चरणस्य मतदानार्थं सर्वाः सज्जाः समभवन्। नवराज्याणाम् एकस्य केन्द्रशासित प्रदेशस्य च 96 लोकसभासनेषु श्वः मतदानानि भविष्यन्ति। एतेषु आन्ध्रप्रदेशस्य 25, तेलंगानायाः 17, उत्तरप्रदेशस्य 13, महाराष्ट्रस्य 11, मध्यप्रदेश पश्चिमबंगालयोः प्रत्येकम् 8, बिहारस्य 5, झारखण्ड ओडिशा राज्ययोः प्रत्येकं 4, सहैव जम्मू कश्मीरस्य 1 आसनं सन्निद्धं वर्तते। लोकसभासनेभ्यः चतुर्थचरणाय आहत्य 17,700 प्रत्याशिनः नैर्वाचनिक समराङ्गणे सन्ति। मतदानानि प्रातः 7 समारभ्य सायं 6 यावत् भविष्यन्ति। ओडिशायां प्रथमचरणाय मतदानानि श्वः भविष्यन्ति। अस्मिन् चरणे कालाहांडी, कोरापुर, नवरंगपुर, बेहरामपुर इत्यादिषु लोकसभासनेषु सहैव 28 विधानसभासनेषु मतदानानि भविष्यन्ति। प्रथमे चरणे चतुर्भ्यः लोकसभासनेभ्यः 37 प्रत्याशिनः सहैव 28 विधानसभासनेभ्यः 43,200 प्रत्याशिनः नैर्वाचनिक समराङ्गणे सन्ति। ओडिशा विधानसभायाः 47,100 आसनेषु प्रथमे चरणे 28 आसनेषु श्वः मतदानानि भविष्यन्ति। अस्मिन् चरणे 87,260,000 मतदातारः स्वीय प्रतिनिधिनां चयनं करिष्यन्ति। उत्तराखण्डस्य चमोली जनपदे स्थितस्य प्रसिद्ध बद्रीनाथ धाम्नः कपाटानि अद्य प्रातः 6 वैदिक मन्त्रोच्चारणेन सह उद्घाटितानि। अस्मिन् अवसरे बृहन्मात्रायां तत्र श्रद्धालवः उपस्थिताः अवर्तन्त। बद्रीनाथ मन्दिरं पुष्पैः सुसज्जितं वर्तते। बद्रीनाथ धाम्नः कपाटोद्घाटनेन सहैव धामचतुष्टयम् अपि इदानीं श्रद्धालुभ्यः उद्घाटितम्। इतः पूर्वं केदारनाथ, यमुनोत्री, गंगोत्रीषु अपि शुक्रवासरे कपाटोद्घाटनं सञ्जातम्। ऋतुविज्ञानविभागेन आगामि दिनद्वये दिनत्रये च तटीय आन्ध्रप्रदेश यानं तेलंगाना, ओडिशा, तमिलनाडु, पुदुच्चेरी, करैकल, कर्णाटके च केषुचित् भागेषु प्रबलवृष्टेः अनुमानः प्रकटितः। अस्मिन् अवधौ मध्यप्रदेशस्य, झारखण्डस्य, महाराष्ट्रस्य, पश्चिमबंगालस्य, अण्डमान निकोबार द्वीपसमूहस्य च समेत्य देशस्य दक्षिणोत्तर पश्चिमभागेषु अधिकांशक्षेत्रेषु मेघगर्जनेन सह वृष्टिरपि सम्भाव्यते। सौराष्ट्रस्य कच्छक्षेत्रस्य च तटीयक्षेत्रेषु अत्यधिकोष्णता अनुमानिता। अत्रान्तरे राजधान्यां नवदिल्ल्याम् अद्य झंझावातेन सह वर्षा अपि भवितुं शक्यते। अपि च ओडिशायाः उत्तर पश्चिमक्षेत्रे समागतेन झंझावातेन राज्यस्य नैकेषु भागेषु ह्यः आरभ्य वर्षा सञ्जायते। गतनिशीथे राजधान्यां भुवनेश्वरनगर्याम् अथ कटकनगरस्य समीपवर्तिक्षेत्रेषु मेघगर्जनेन समं प्रबलवृष्टिः सञ्जाता। ऋतुविज्ञानविभागेन उक्तं यत् भुवनेश्वरे 67.8 mm वृष्टिः अभवत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठनेता नरेन्द्रमोदी अद्य ओडिशायाः बोलांगीरक्षेत्रे एकस्यां जनसभायां राज्यस्य मुख्यमन्त्रिणः नवीन पटनायकस्य आलोचनां कृतवान्। तेनोक्तं यत् श्रीमता पटनायकेन खनिसम्पदः सम्पन्ने ओडिशाराज्ये पञ्चविंशतिः वर्षाणां शासनावधौ विकासकार्यं नैव कृतम्, जनाश्च निर्धनाः एव प्रवर्तिताः। श्रीमोदी अवोचत् यत् आजीविकायै युवानः गुजरातप्रभृतिराज्येषु पलायनं कुर्वन्ति। कृषकेभ्यः तेषां कृषि उत्पादानां समुचितं मूल्यं नैव प्राप्यते। श्रीपटनायकः सामान्यजनैः सह नैव सम्पृक्तः, तेषां कष्टं च नानुभवति। प्रधानमन्त्रिणा उक्तं यत् पटनायकप्रशासनस्य प्रतीपगणना आरब्धा, विधानसभानिर्वाचनेषु च भाजपादलं राज्ये शासनं विरचिष्यति। इसरो इति भारतीय अन्तरिक्षानुसन्धान संघटनेन एडिटिव विनिर्माण प्रविधि माध्यमेन नूतनस्य तरल प्रक्षेप्यास्त्राभियन्त्रस्य साफल्येन परीक्षणं विहितम्। इदं परीक्षणं मे मासस्य नवमे दिनांके तमिलनाडोः महेन्द्रगिर्याः इसरो प्रोपल्शन कॉम्प्लेक्स स्थानके समभवत्। सुरक्षाबलैः जम्मूकश्मीरस्य सियासी जनपदे आतंकिनाम् एकं शरणस्थलं विनष्टम्, ततः बृहन्मात्रायां विस्फोटकानि च सम्प्राप्तानि। कोटबुधन वनक्षेत्रे राष्ट्रिय राइफल्स अथ आरक्षिबलानाम् अन्वेषणाभियाने एतत् आतंकिस्थात्रं दृष्टिमागतम्। वार्ताः लेखनसमयं यावत् अन्वीक्षणाभियानं प्रवर्तते। दक्षिण गाजाक्षेत्रे आक्रमणवृद्धिम् उद्दिश्य इस्राइल सेनया रफा नगरात् जनान् प्रत्यावर्तितुम् आदेशः प्रदत्तः। अयम् आदेशः मध्य रफा अथ अन्यक्षेत्रेषु अपि प्रवृत्तः भविष्यति। अन्ताराष्ट्रिय समूहेन अमुम् आदेशम् आधृत्य कठोर प्रतिक्रिया प्रदत्ता। इस्राइल सेनया उक्तं यत् इदानीं यावत् त्रिलक्ष जनाः ततः पलायनं कृतवन्तः। अत्रान्तरे फिलिस्तीनाय संयुक्तराष्ट्र शरणार्थी समवायस्य प्रमुखेण इस्राइल देशस्य अयं पदक्षेपः भृशं विनिन्दितः। इण्डोनेशियायाः पश्चिम सुमात्रा प्रान्ते अतिवृष्ट्या जलप्लावः भूस्खलनञ्च समभवत्। अस्मात् कारणात् अष्टाविंशतिः जनाः मृत्युमुपगताः, चत्वारश्च विलुप्ताः सन्ति। अफगानिस्ताने शुक्रवासरे केषुचित् प्रान्तेषु भयंकर जलप्लावनेन 15+300 जनाः मृत्युमुपगताः, 16+ जनाः व्रणिताः समभवन्। अधिकारिभिः तत् आपात्कालः समुद्घोषितः। ब्राजीलदेशेऽपि शनिवासरे अतिवृष्ट्या महतिः हानिः अभवत्, तत्र 26+ जनाः मृत्युमुपगताः। नागरिक सुरक्षाभिकरणेन कथितं यत् गतसप्ताहे महद्वृष्ट्या 6+800 जनाः व्रणिताः, सहैव 25+100 जनाः लुप्ताः समभवन्। अमन सहरावतः एसमः पेरिस क्रीडायै प्रथमः भारतीय मल्लक्रीडकत्वेन प्रचितः। एशिया क्षेत्रस्य विजेत्रा सहरावतेन गतदिने इस्ताम्बुल नगरे विश्व मल्लक्रीडायाः ओलम्पिक अर्हतायै आयोजितायां स्पर्धायां पुरुषाणां 57 kg फ्रीस्टाइल वर्गे पेरिस ओलम्पिक क्रीडायै अर्हता प्राप्ता। आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य चेन्नई सुपर किंग्स दलाय राजस्थान रॉयल्स दलेन 42+100 धावनांकानां विजयलक्ष्यम् उपस्थापितम्। अन्तिमवार्ता लेखनसमयं यावत् चेन्नई सुपर किंग्स दलेन 10 क्षेपचक्रेषु 2 क्रीडकाणां हानौ 77 धावनांकाः विरचिताः। अद्य द्वितीयायां स्पर्धायां सायं 6:30 रॉयल चैलेंजर्स बेंगलुरु दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। इति वार्ताः।